वंदे गुरुणां चरणारविन्दे संदर्शित स्वात्मसुखावबोधे जनस्य ये जांगुलिकायमाने संसारहालाहलमोहशान्त्यै मदीयहृदयाकाशे चिदानन्दमयो गुरुः उदेतु सततं सम्यक् अज्ञानतिमिरारुणः पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुर्ज्वलितं च तेजः नभस्य शब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् कुर्वन्तु सर्वे मम सुप्रभातम् लोकेश चैतन्यमयादिदेव श्रीकांत विष्णो भवदाज्ञयैव प्रातः समुत्थाय तव प्रियार्थम् संसारयात्रा अनुवर्तयिष्ये प्रातः समुत्थाय तव प्रियार्थम् संसारयात्रामनुवर्तयिष्ये प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वम् सच्चित्सुखं परमहंसगतिं तुरीयं यत्स्वप्नजागरसुषुप्तमवैति नित्यं तद्ब्रह्मनिष्कलमहं न च भूतसङ्घः प्रातर्भजामि मनसो वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण यन्नेति नेति वचनैर्निगमावोचुः तं देवदेवमजमच्युतमाहुरव्यं प्रातर्नमामि तमसः परमर्कवर्णम् पूर्णं सनातनपदं पुरुषोत्तमाख्यं यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गमैव प्रतिभासितं मयि रज्ज्वां भुजङ्गमैव प्रतिभासितं मयि।